अस्तु ॐ सहनाववतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः अस्तु सो विल स्टार्ट विथ रुचिवाचकाः शब्दाः मीनिङ्ग् हौ डु वि से समथिङ्ग् दट् इस् सम् टेस्ट् रैट् वर्ड्स् रिलेटेड् टु टेस्ट् इस् वाट् वि लर्न् टुडे सो फस्ट् वन् इस् लवणं लवणं रुचिः लवणः सो लवणम् इत्युक्ते साल्ट् लवणः इत्युक्ते साल्टि अस्तु अर् साल्टि टेस्ट् देन् वि हाव् जम्बीरं जम्बीरस्य रुचिः आम्लः आम्लः इत्युक्ते कैण्ड् आफ् सोर् टेस्ट् जम्बीरम् इत्युक्ते वि आलरेडि नो देट् लेमन् एण्ड् चाक्लेहः चाक्लेहस्य रुचिः मधुरः मधुरः इत्युक्ते स्वीट् चाक्लेहस्य चाक्लेहस्य रुचिः मधुरः मरीचिका मरीचिकायाः रुचिः कटुः मरीचिकायाः याः इत्युक्ते सेवन् षष्टिविभक्ति रुचिः कटुः कटुः इत्युक्ते पञ्जण्ट् कार्वेलं कार्वेल्लम् इत्युक्ते कार्वेलस्य रुचिः तिक्तः सो बिटर् गौड् टेस्ट् इस् बिटर् देट् इस् वाट् तिक्तः इत्युक्ते तिक्तः इत्युक्ते इट् इस् बिटर् इन् टेस्ट् आम्लकम् आम्लकस्य रुचिः काषायः so something that is not really you know hot but it is kind of you know taste which kinds of gives you a kind of taste which is not really pungent or bitter but can be eaten well that kind of taste is called as astringent astringent or kashaya amlakasya ruchih kashaya is the taste that we are trying to use here अस्तु सो काषायः अग्रे सो विल् ट्रै टु डू दिस् सेण्टेन्सस् हियर् सो त्रिवेणी भगिनी अस्ति वा
अस्ति महोदय
सो केन् यु प्लीस् डू दिस् सेण्टेन्सस् हियर्
एतानि वाक्यानि पठतु अशुद्धानि वाक्यानि शुद्धानि करोतु Please read these sentences and correct the sentences.
Thank you.
Gudasya ruchihi katuhu.
Mm.
Gudasya ruchihi maduraha.
Mm.
Marichikayaha ruchihi maduraha. Marichikayaha ruchihi. Marichika means...
Marichikaya it is there. Mirchi.
मरीचिकस्य रुचिः न मरीचिकायाः रुचि न मरीचिकायाः रुचिः कटुः आम्रफलस्य रुचिः तिक्तः न आम्रफलस्य रुचिः आम्रफलस्य रुचिः तिक्तः
तिक्तः अपि अस्ति मधुरः अपि अस्ति
अवलेहस्य रुचिः मधुरः अवलेहस्य मीन्स् वाट् इस्
पिकल्
पिकल् ओके न अवलेहस्य रुचिः कटुः त्रिन्त्रिण्याः रुचिः कटुः
त्रिण्याः वन् सेकेण्ड् तिन्त्रिण्णी इत्युक्ते किन्तिन्
मम्मी कावालन्नादि
किं किं इत्युक्ते एकनिमिषं भगिनी ऐ एम् नाट् एबल् टु रीकाल् वाट् इस् तिन्त्रिण्याः रुचिः. अस्तु, वील् सी दिस् लेटर्. तिन्त्रिण्याः इति शब्दः अनन्तरं पश्यामि.
एतत् सम्भाषणं पठतु पुत्रः. प्लीस् रीड् दिस् कान्वर्सेशन्. पुत्रः अम्बा अम्बा किम् अद्य क्वथितं बहु कटु अस्ति. क्वथितम् ऐ डोण्ट् नो सर्
साम्बार् भगिनी साम्बार्
टुडेस् साम्बार् बहु वै इट् इस् सो हाट् ऐ मीन् माता तर्हि क्वथितं मा स्वीकरोतु. तक्रं परिवेशयामि. यस्टर्डेस् साम्बार् मा स्वीकरोतु. यु took it, is it correct?
Yesterday, no, adya, adya means now, bhagini. Kim adya, kvatitam bahu.
Tahri, today. Tomorrow. Adya. Tahri, tahri.
Tarihi means then, tarihi, then.
Then, samba, maa svikarotu, naa svikarotu or maa svikarotu?
Maa svikarotu. Maa.
Maa.
हा मा स्वीकरोतु इति समीचीनमस्ति. मा स्वीकरोतु, डोण्ट् टेक् इट्, मा स्वीकरोतु. नो, वेन् यु से ना मीन्स् इट् इस् कैण्ड् आफ् नो. मा स्वीकरोतु, समीचीनमस्ति.
देन् डोण्ट् टेक् इट्. तक्रं परिवेशयामि. तक्रं परिवेशयामि मीन्स् तक्रं ऐ डोण्ट् नो
बटर् मिल्क् भगिनि.
बटर् मिल्क् परिवेशयामि. टेक् इट् इस् इट् करेक्ट्?
न परिवेशयामि. सो यामि इत्युक्ते it is for the, for who is speaking. Mata is saying, shall I serve buttermilk?
Okay fine. Yeah. Parveshayami, parvesham, is it the word for serving? Parvesham,
parveshayati, parveshayati, parveshayati ityukte to serve. Parveshayami means shall I serve, or takram, I'll serve.
Okay thank you sir. तक्रं पुत्रः तक्रं बहु आम्लम् अस्ति अम्ब. बटर् मिल्क् इस् सो सोर् माता. भवान् तु केवलं मधुरम् इच्छति. जस्ट् टेक् मधुरं मीन्स् स्वीट्.
यु ओन्लि लैक् स्वीट्. इच्छति मीन्स्
एतत् मोदकं खादतु. टेक् दिस् मोदक्. बहु मधुरम् अस्ति. दे आर् वेरि स्वीट्. पुत्रः सत्यम् अम्बा, एतत् मधुरम् अस्ति. यस् माम्, दे आर् वेरि स्वीट्. माता कारवेलस्य व्यजनम् अस्ति. You have bitter gourd also, curry also, I think so. Kinchit pariveshyami va. Do you want me to serve? But can I serve it? Is it correct, sir? But
kinchit pariveshyami, little.
Okay, kinchit. Little, can I serve it little? पुत्रः मास्तु अम्ब. नो माम्, करवेलं तिक्तं भवति. इट् इस्
बिटर्.
तिक्तं, या बिटर्. अहं तिक्तं न इच्छामि. ऐ डोण्ट् लैक् बिटर्. किञ्चित् लवणं परिवेशयतु. ऐ टेक् लिटिल् साल्ट्.
नो, परिवेशयतु मीन्स् प्रोबब्लि हियर् इस् आस्किङ्ग् न, सो नाट् टेक् बट् गिव् मी, यु सर्व् मी.
ओके, स्वीकरोतु. टेक् इट् ऐ मीन् आम्लकस्य अवलेहं किञ्चित् परिवेशयामि वा. आम्लकस्य ऐ मीन् अवलेहं. Yeah, goosberry pickle. Little, you want me to serve little, is it correct?
Hmm. Samichinam.
Hmm. Yeah. Can you scroll down, sir?
Astu bhai.
Putrah, astu, parveshyatu. Yeah, you can serve me. Amba, amlakasya ruchihi, kashayaha asti. Mom, gooseberries taste is little bitter kind of what you said.
Astringent.
Astringent. Mata, tarhi jambirasya avaleham svikarotu. Then take lemon pickle.
Samichinam.
Putraha, satu amlam amlaha asti amba. Sa tu amlaha asti amba. Okay with gooseberry, I think.
Yes, yes. Sa tu then.
Mata, bhavan tu maduram ekameva icchati. You only like sweet. Parantu sharirasya vardhanartha sarva vidaha ruchayaha api avashika eva. But for the body development, you need every taste. You need to have every taste.
Exactly. Vardhanartham sarva vidaha ruchayaha api avashikaha eva.
Only. Yeah.
Samichinam bhagine. अग्रे अपि पठतु, एतेषाम् उत्तरं लिखतु.
एतेषाम् उत्तरं लिखतु, प्लीस् फिल् इन् द ब्लाङ्क्स् और् आन्सर् दिस्. क्वथितं कथम् अस्ति?
साम्बार् कथम् अस्ति? कटु अस्ति.
या साम्बार्, या सारी.
अग्रे तक्रं कथम् अस्ति? तक्रम् आम्लम् अस्ति, मधुरम् अस्ति.
आम्लकम् अस्ति अस्ति
आम्लम् आम्लम् आम्लम्
आम्लम् बिटर्
आम्लकस्य अस्ति इत्युक्ते इट् इस् लैक् गूस्बेरि. आम्लम् मीन्स् बिटर्. अस्तु भगिनि, किं तिक्तं भवति? किं तिक्तं भवति?
वैट् इस्
किं किं मीन्स् वाट् इस्
कारवेलस्य तिक्तम् अस्ति.
कारवेलं तिक्तं भवति अस्ति. समीचीनं.
आम्लकस्य का आम्लकस्य रुचिः तिक्तम् इत्युक्ते
आम्लकस्य रुचिः
भवान् किम् इच्छति? भवान् मधुरम् इच्छति.
मधुरम् इच्छति. समीचीनं.
गुडस्य रुचिः का? गुडस्य रुचिः मधुरम्.
गुडस्य रुचिः मधुरं. बहु समीचीनं भगिनि. अस्तु भगिनि, धन्यवादः.
धन्यवादः महोदय.
अस्तु भगिनि, अग्रे मञ्जुश्री भगिनी अस्ति वा?
आं महोदय.
एतत् सम्भाषणमस्ति, कृपया पठतु, अनन्तरं किं शब्दः अस्ति इति पश्यामः.
ओके. आपणिकः, भवती किम् इच्छति? वाट् डु यु वाण्ट्? रमा, अहं पाञ्चालिका इच्छामि. ऐ वाण्ट् अ डाल्. आपणिकः, कीदृशं पाञ्चालिकाम् इच्छति? वाट् कैण्ड् आफ् डाल् यु वाण्ट्? रमा, पश्यतु, ईदृशपाञ्चालिकाम् इच्छामि. अस्ति वा? प्लीज़् सी, ऐ वाण्ट् अ डाल् लैक् दिस्. इस् इट् अवेलेबल्? केन् यु प्लीस् स्क्रोल् डौन् सर्. आपणिकः, अस्ति, परन्तु तादृशपाञ्चालिकायाः मूल्यं 20 रूप्यकाणि.
विंशतिरूप्यकाणि.
यस् अवेलेबल्. हवेवर् द कास्ट् आफ् दिस् कैण्ड् आफ् डाल् इस् 20 रूपीस्. रमा, दर्शयतु भो. आपणिकः दर्शयति. प्लीज़् शो, द शाप्कीपर् शोस्. किं भो, मम सखी अपि ह्यः ईदृशं पाञ्चालिकाम् एव क्रीतवती. तस्याः मूल्यं तु 10 रूप्यकाणि एव. वाय् सो my friend yesterday purchased same kind of doll. Her value was 10 rupees only. Apanikah prayah sa panchalika idrusham idrusha panchalika na syat. Mostly that doll was not like this. Rama idrusha panchalika eva bhoho aham samyak janami. I know very well it was this kind of doll only. Apanikah तर्हि पञ्चदश रूप्यकाणि ददातु नयतु देन् प्लीज् पे 15 रूपीस् एण्ड् टेक् इट् रमा न न पञ्चदश रूप्यकाणि अधिकानि अहं तु दश रूप्यकाणि ददामि नो नो 15 रूपीस् आर् मोर् ऐ विल् टेक् इट् ओन्ली फ़ार् 10 रूपीस् नो या बर करेक्ट् ऐ अहं तु दश रूप्यकाणि ददामि ऐ विल् गिव् ओन्ली 10 रूपीस् भवतु पाञ्चालिका स्वीकरोतु ओके प्लीस् टेक् इट्
समीचीनं भगिनि बहु समीचीनम् ईदृश इत्युक्ते भगिनि ईदृश
ईदृश लैक् दिस्
अग्रे तादृश
लैक् देट्
समीचीनं कीदृश
लैक् वाट्
समीचीनं भगिनि दिस् आर् द त्री वर्ड्स् देट् वी हेव् सीन् एण्ड् prayah is also something bhagini has already said mostly it means mostly or probably astu and also can you read vishesha suchana what it means here
yes vishesha suchana idrusha idrushah syutah idrushi gati idrusham pustakam so like the gender of the object the visheshan will also change
समीचीनं भगिनि ईदृशः ईदृशी ईदृशम् ईदृशः ईदृशी ईदृशं समीचीनं भगिनि अने सो देर् इस् वन् एक्ससैज़् फार् आल् आफ् यू विच् यू केन् डू एस् होम्वर्क् हियर् इन्स्टेड् आफ् दिस् हि सेड् पूर्वतनसम्भाषणे पाञ्चालिकाशब्दस्य स्थाने लेखनी इति शब्दं योजयित्वा सम्भाषणं पुनः लिखतु प्लीस् रीरैट् द कान्वर्सेशन् इन् बै यूसिङ्ग् the word lekhani in place of panchalika that is all that we have to use for this apanika ityukte shopkeeper rama is still the same only the sentence with, that contains panchalika should be replaced with lekhani lekhani not lekhani lekhani panchalika is akaranta stilinga shabdah lekhani is ikaranta strilinga shabdah so we have to rewrite this conversation that is what we will do this later So that would be your homework and if we are able to complete another few exercises I think we are done for the Abhyasa Pustakam and this would be our last class so let's try to do that today astu so agre usha bhagini asti va अस्तु नास्ति चेत् प्रेमलता भगिनी अस्ति वा
आम् आं महोदय अहमस्मि
केन् यु प्लीस् डू दिस् एक्स्प्लेन् एतत्
विरुद्धार्थकशब्दाः
आम्
विरुद्धार्थकशब्दाः इत्युक्ते द आपोसिट् वर्ड्स् ऐ थिङ्क्
समीचीनं भगिनि आपोसिट् वर्ड्
उन्नतवामन
उन्नत इत्युक्ते
यु केन् से लाङ्ग् आर् हैट् लैक् दट् वाम् आर् शार्ट्
समीचीनं टाल्
टाल् अण्ड् शार्ट्
टाल् अण्ड् शार्ट् समीचीनं भगिनि
पुरातन नूतन ओल्ड् अण्ड् न्यू
ओल्ड् अण्ड् न्यू
बहुत्
बृहत्
लघु बृहत् अण्ड् लघु
big and small
big and small we can say big and small lagu means small
aam bagne small lagu
dirgha hasva dirgha means it is long and hasva short
samichinam
stula stula drisha stula means अधिकं किञ्चित् अधिकं मीन्स् मोर् किञ्चित् मीन्स् लेस् विचन्ते
समीचीनं
अधिकं मीन्स् मोर् विचन्ते किञ्चित् मीन्स् केसे सम् उपरि केचन विरुद्धार्थकशब्दाः सन्ति अद्यस्तनवाक्येषु स्थितानि रिक्तस्थलानि उचितैः विरुद्धार्थकशब्दैः पूरयतु नारिकेलवृक्षः उन्नतः अस्ति
समीचीनं
जम्बीरवृक्षः वामनः अस्ति आ इति दण्डः दीर्घः अस्ति ब दण्डः ह्रस्वः अस्ति युतकं पुरातनम् अस्ति बिकास् वि सी सम् मार्क्स् अण्ड् संथिङ्ग् देयर् मे बि पुरातनम् अस्ति पुस्तकं नूतनम् अस्ति
समीचीनं नूतनम् अस्ति
गोविन्दः कृशः बालकः दिस् इस् अ बाय् इस् ग्रीन् सो कृशः बालकः समीरः स्थूलः बालकः गोविन्दा समीरा वी केन् डू वाट् एवर् यु वाण्ट् टु गोविन्दा मे बि स्थूलः समीरा मे बि कृशः
नोतार्
बालकः
अस्तु भगिनि समीचीनं
विधानसौधं बृहत् भवनं सन्दीपस्य गृहं लघुगृहं द्रोण्याम् अधिकं जलम् अस्ति चषके किञ्चित् क्षीरमस्ति
किञ्चित् क्षीरम् अस्ति समीचीनम् अस्तु स्थूलः स्थूलः एण्ड् दट् इस् वाट् भगिनी हेस् आल्सो यूस् सो भगिनी केन् यू आल्सो प्लीस् रीड् द फार्म्स् फार् ईच् आफ् दि जेण्डर् केन् यू यूस् द केन् यू प्लीस् एकवारम् एतत् शब्दानि
हलो
उषा भगिनि यस् भगिनि
my connection was lost again I have logged in
astu bagne so next exercise I'll you can do it bagne for now premlata bagne will do
what is the question mahadeya
can you please read these forms of the word aloud bagne ekvaram vadatu ekvaram stulha nutana shabdi kinjiti
okay vishesha suchana na vishesha suchana stula बालकः स्थूलः बालिका स्थूला पुस्तकं स्थूलम् इत्युक्ते दिस् वन् इस् पुंलिङ्ग स्त्रीलिङ्ग अण्ड् पुस्तकम् इस् नपुंसकलिङ्ग बालिका इस् स्थूल बालिका स्थूला इस् स्त्रीलिङ्ग सो शब्द स्थूल शब्द टु बि यूस्ड् एस् विशेषणशब्द स्थूला
समीचीनं
स्थूल बालकः स्थूलः बालकः पुंलिङ्गः अतः स्थूलः शब्दः एस् विशेषणशब्द शुड् बि यूस्ड् वित् दिस् वन्
समीचीनं समीचीनं
नूतनशब्दस्य प्रयोगः पुंलिङ्गे स्त्रीलिङ्गे अण्ड् नपुंसकलिङ्गे ग्रन्थः नूतनः पुंलिङ्ग ग्रन्थः पुंलिङ्गः अत्र नूतनविशेषणशब्दः पुल्लिङ्गशब्दस्य कृते ग्रन्थः कृते नूतनः विशेषः शब्दः पुल्लिङ्गेन उपयुज्यः अत्र
उपयोजयति अत्र
लेखनी नूतन लेखनी इति स्त्रीलिङ्गशब्दः अत्र नूतन अपि स्त्रीलिङ्ग
विशेषणशब्दः
युतकं नूतनं युतकम् इति नपुंसकलिङ्गशब्दः नूतनम् इत्यपि विशेषणशब्दः युतकस्य सह योजयित्वा
नूतनम् इति अभवत् नूतनम् इति
नूतनं युतकम् इति अभवत्
अभवत् समीचीनं बहु बहु समीचीनं बहु समीचीनं बोधयति अत्र. अस्तु भगिनि, धन्यवादः.
नेक्स्ट्
न भगिनि, न भगिनि, उषा भगिनी एतत् पठति.
अपेक्षया आवरणे विद्यमानस्य पदस्य साहाय्येन वाक्यानि लिखतु. So using the words within bracket, you have to complete the sentence.
आं भगिनि.
विजयस्य अपेक्षया विनयः उन्नतः. अपेक्षया मीन्स्
in comparison to or compared to.
Okay.
And whenever we are using apekshaya bhagini, one note is like the word that we are trying to use it before is in shashti vibhakti. Vijayasya apekshaya. So in comparison to Vijay, that is what it is going. Or in comparison with, or the height of, so of, the possessive is happening with respect to one of the nouns that is being used.
विजयस्य अपेक्षया विनयः उन्नतः. सो विनयः हर पोलैट्नेस्. पोलैट्नेस् इस्
उन्नतः. न न उन्नतः इत्युक्ते इस् आक्चुलि हैट् भगिनि. हियर् इट् इस् मीन्स् टाल्. वि आर् कम्पेरिङ्ग् द हैट्स् आफ् विजय एण्ड् विनय. विजय इस् less in height compared to Vinay. So Vinayah is unnatah, is taller in comparison of Vijay's height.
Okay. Oh, so Vinay is another person. Vijay is the apekshaya, Vinayah unnatah. Okay. Then
agree.
Madhusudanah dash Samirah chaturah. मधुसूदनः अपेक्षया समीरः चतुरः.
अपेक्षया समीचीनमस्ति. मधुसूदनविभक्तिः षष्टिः नास्ति.
मधुसूदनस्य अपेक्षया समीरः चतुरः.
सो वी आर् कम्पेरिङ्ग् द क्वालिटीस् आफ् दीस् टु पीपल्. दट् इस् वैट् इस् इन् षष्टि. दट् इस् वैट् इस् इन् षष्टि विभक्ति.
डेश् रामायणं बृहत् काव्यं. रघुवंशस्य अपेक्षया रामायणं बृहत् काव्यं.
समीचीनं.
मम डेश् डेश् भवतः गृहं विशालं. मम गृहस्य अपेक्षया भवतः गृहं विशालं.
समीचीनं.
बेङ्गलूरु डेश् डेश् मैसूर् नगरं सुन्दरं. बेङ्गलूरु नगरस्य अपेक्षया मैसूर् नगरं सुन्दरं. भाषणं सुलभं. लेखनस्य अपेक्षया भाषणं सुलभं. देन् अपर्णा कृषा. उमायाः अपेक्षया अपर्णा कृषा.
अपर्णा कृषा इत्युक्ते कृषा इत्युक्ते
स्लिम्.
समीचीनं समीचीनं भगिनि. अस्तु भगिनि, अस्तु समीचीनम्. अग्रे मुरुगन् महोदय अस्ति वा?
अस्तु महोदय, अस्मि अस्मि महोदय. बट् ऐ विल् टुडे ऐ विल् फालो अप् महोदय बिकास् ऐ लाङ्ग् इण्टर्वल् ऐ जायिन् मीटिङ्ग्. सारि.
अस्तु अस्तु,
ऐ विल् फालो अप् प्लीस् डोण्ट् मिस्टेक् मी
महोदय. अस्तु महोदय, अस्तु. सो यत्र तत्र वि हेड् कम्प्लीटेड् इन् वन् आफ् अवर् प्रीवियस् क्लास्. सो वि विल् नाट् यूस् यत्र तत्र अगेन्. दिस् यू केन् टेक् केर् लेटर्. वि हव् आलरेडि सीन् यत्र तत्र अत्र कुत्र. these are the comparisons that we have done before only, so we will not try to do this in today's session. Yatra, tatra, kutra, atra, right? So we had done this earlier, but just to revise this quickly, what I'll do is I'll read them aloud so that we can just use them here, how they have been used. Yatra and tatra go hand in hand is what is being stressed upon here. So etesham padanam sahayena anyani vakyani likhatu. So sharkara pipilikaha. Yatra sharkara tatra pipilikaha bhavanti. Deepaha yatra deepaha asti tatra prakasha bhavati. Krida yatra krida asti tatra balakaha kridayanti. Vidushakaha vinodaha yatra vidushakaha asti tatra vinodaha api bhavati. Apanah grahakah. Yatra apanah asti tatra grahaka kridati. Astu, so this is how yatra and tatra could be used. So similarly, you can form these sentences. Yatra means where, there. So where and there. That is what yatra and tatra means. This is something that we have done previously as well. So try to complete this dvitiyam vakyam patitva tasambandham prathama vakyam likhadu. So using the second whatever is given, we have to complete the first sentence is what is given here. So yatra tatra asti tatra vasam ma karotu. Astu, so yatra sarve api gacchanti. So these are the kind of sentences that have been given. So we have to complete the first form. So using yatra and tatra, you can complete this. So please try to take this as homework also, yatra and tatra. Next one is tumun. Attu. So Manjushri Bhagini, can you please read a tumun and we'll try to understand how tumun is being used here. Tumun means here pratyaya. Tumun is actually a suffix. So whenever there is a desire or whenever we want to do something, we can go for tumun pratyayas. So we'll try to see how they are being used and how the verb form is being generated. So we'll have one tumun pratyaya and how it is being used. So Bhagini, can you please read this out?
तुमुन् प्रत्ययः आवरणे विद्यमानस्य क्रियापदस्य उचितं रूपं उदाहरणवाक्ये इव लिखतु. उदाहरणं रमेशः क्रीडाङ्गणं गच्छति. रमेश गोस् टु प्लेग्राउण्ड् टु प्ले.
To play, yes. So, kriditum is what is to play is becoming. So, instead of playing or he plays, Rameshaha kridati means Rameshaha plays. Kriditum is now kind of, he goes to playground to play. That is how kriditum is what is being referred to. Astu bhagini, agree.
Okay. Umeshaha vastuni anayati apanam gatavan. Umeshaha vastuni anayantu आपणं गतवान. इज इट करेक्ट सर? आनयन्तु
आनेतुम. दिस इज अ लिटिल बिट डिफरेंट हियर. आनेतुम क्रीडितुम इट हां दैट वाज क्रीडति. आनेतुम आनेतुम तुमुन आनेतुम.
ओके ओके. अहम लिखति लेखनीम आनीतवती. अहम लिख लिखितुम नहीं
लेखितुम. हां लेखितुम एक्चुअली हियर ली इज बिकमिंग ए. सो दिस इज अ काइंड ऑफ चेंज दैट हैपेंस विद सम आई और ई. दिस विल बिकम लेखितुम. अहम लेखितुम.
अहम लेखितुम लेखनीम आनीतवती. ओके. जनाः नाटकं पश्यन्तु इच्छति.
एक्चुअली पश्यतुम द्रष्टुम
द्रष्टुम. ओके.
द्रष्टुम
इच्छति. ओके. दृश पश्य. फाइन. ओके. सः द्रष्टुम. ओके. सः अस्वस्थः अतः कार्यं कर्तुं न शक्नोति.
कार्यं कर्तुं न शक्नोति. अस्तु भगिनी.
कैन यू प्लीज स्क्रोल डाउन सर. संगीतं शृणोतु. शृणोतुं भवान् कुत्र गच्छति?
इदर this here also it will become shrotum shrotum
shrotum shrotum okay sangitam shrotum bhavan kutra gacchati okay jalam here it will be like what pibatum no
pa no no pit pa पातुं पातुं भगिनि पातुं चषकः पातुं श्रोतुं पातुं
ओके जलं पातु चषकः आवश्यकः सो विद् दिस् फार्म् वि लैक् वि से टु एण्ड् अ वर्ब् टु डू संथिङ्ग् संथिङ्ग् इस् रिक्वायर्ड्
समीचीनं समीचीनम्
ओके ओके विशेषरूपाणि उपविशति उपवेष्टुम् उत्तिष्ठति उत्थास्तुम् अस्ति भवति भवितुं क्रीणाति क्रेतुं गृह्णाति ग्रहीतुं पिबति पातुं आह्वयति आह्वातुं मिलति मेलितुं
समीचीनम् सो दिस् इस् हौ द फार्म्स् विल् बि वेन् वि यूस् तुमुन् प्रत्ययः सो केन् यु आल्सो डू द बिलो एक्सर्सैज़् अण्ड् सी हौ दीस् आर् बीङ्ग् इण्टर्चेञ्जबलि यूस्ड् वित् रेस्पेक्ट् टु tavat pratyah and tumun pratyah how these usages are
sir is there any rule because in each case the form was different or the rupam was different
yes bhagini there are a lot of rules this is again based on panini's grammar and also we have to understand how krudantas are being formed so these are actually called as krudantas in grammar suffixes how the suffixes are generated there are about 140 suffixes in Sanskritam grammar there could be more but 140 is something that is what generally we come across 140 suffixes are there and whenever we use these kind of suffixes these krudantas there are about 60 rules for which we can follow for these krudantas but again when we look at Panini's grammar there are lot of rules that could be applied how a rule is derived sometimes is based on previous rules also so yes so there are rules and how these are again there are something called as ganas so based on those ganas so this could be how the verb is actually changed these are basically verbs now verbs when used in these forms like suffixes are called as krudantas so these are all krudanta forms that we are seeing right now tumun tavat these are all krudanta so this is how they are going to be and there are definitely rules but I think we will not be covering in this session they are covered as part of our panini vyakarana classes there are a lot of rules for them
okay
because the reason is e sometimes becomes a and depending on the word that we are using it is also becoming ukaranta so for example pibati is becoming patum but milati is becoming melitum so if we look here
yes
so we cannot really say why it is happening here just by looking at the krudanta form the verb here uttishti but the krudanta form is utthatum so when we use utthatum it is kind when we say krudanta krudanta is actually a noun form you can use that in noun form also krudanta and some krudantas are in all the three lingas and some krudantas are only in few lingas and there are exceptions also for krudantas and all these krudantas again follow panini vyakarana rules so ashtadhyayi is what again we have to refer to why this is happening so there are lot of rules bagini so about 60 rules that we can cover for krudantas but right now I don't think we will be able to do so and also that is not
any general rule is not there but
ha bagini exactly any general rule is not there but when you look at the ending also tum is what is coming but for other krudantas it is not always like this it is not the tum always any suffix that we have it will not follow the same kind of ending sometimes as well
okay sir okay
ambali
okay next one is parivartana abhyasah kvatah tum kapilah granthalayam gatva ग्रन्थं पठति कपिलः ग्रन्थं पठितुं ग्रन्थालयं गच्छति फर्स्ट् इस् कपिल् गोस् टु ग्रन्थालय टु रीड् कपिल् गोस् टु लैब्ररी टु रीड् एण्ड् सेकेण्ड् इस् कपिल् गोस् second is
for
the
reading.
Meaning is the same. For reading, okay, he goes to library.
Exactly. It is kind of how we are actually changing the subject and the object are the objects that are there. Right? It is not actually active and inactive voice or active voice and passive voice, but the way the objects are interchanged.
Yes.
So we are still referring to the Kartrupradam only, not Buddha, but who is doing it. It is still Kapilaha only who is going to library, but he is reading. The way they are arranged is what is changed. To read and he is going to read is what is the way it is being changed.
Yes. Okay. First one is Etena Kramena Anyani Vakyani Parivartayatu. Gauri Sakhi Gruham Gatva Pustakam Anayati. गौरी पुस्तकम् आनेतुं सखी गृहं गच्छति.
समीचीनं भगिनि, बहु समीचीनम्. अस्तु, अग्रे
आनेतुं, दट् वास्
आनेतुं प्रत्यय. गत्वा गच्छति तावत् प्रत्यय, तावत् प्रत्यय, तावत् प्रत्यय. तुमुन् इस् नौ हियर् आनेतुं. That is, Anayati, Tumun Pratyah, when we add Tumun Pratyah to Anayati, it will become Anayatu.
Anayatu. Chitrakaraha Chitram Likhitva Dhanam Sampadayati. Chitrakaraha Dhanam Sampadayatum Chitram Likhitva.
Likhati.
Likhati, okay. Oh, sorry. Likhati, yes.
Likhati.
Correct. Balika Samyak Pathitva Uttirna Bhavati. Balika उत्तीर्णा भवितुं सम्यक् पठति.
सम्यक् पठति, बहु समीचीनम्. अग्रे भगिनि.
एषः स्नानं कृत्वा शुद्धः भवति. एषः शुद्धः भवितुं स्नानं करोति.
करोति, समीचीनम्. अस्तु, अग्रे.
सम्यक् विचारं कृत्वा कार्यं करोतु. सम्यक् विचारं कृत्वा कार्यं करोतु. नाट् एबल् टु डू इट् सर्.
ओके. सम्यक् कार्यं कर्तुं विचारं करोति.
ओके. सम्यक् कार्यं कर्तुं विचारं करोति. ओके. ओके. सा पत्रालयं गत्वा पत्रं प्रेषयति. सा पत्रं प्रेषयितुं पत्रालयं गच्छति. प्रेषयितुं, वाट् इस् द प्रेषयितुं?
टु सेण्ड्.
टु सेण्ड्. उषा लोकयानस्थानकं गत्वा सख्याः स्वागतं करोति. उषा सख्यायां स्वागतं कर्तुं लोकयानस्थानकं गच्छति. महाभारतं पठित्वा अहम् अनेकाः कथा जानामि. महाभारतं कथाः जानामि विल् बी सर् चेञ्ज् टु
ज्ञातुं.
ओके. महाभारतं कथाः ज्ञातुम् अहं
महाभारतम् अनेकाः कथाः ज्ञातुम् अहं पठामि.
महाभारतम् अनेकाः कथा ज्ञातुम् अहं पठामि.
आक्चुलि पठामि, सो विल् यूस् अनेकाः कथाः ज्ञातुम् अहं महाभारतं पठामि आर् अहं पठामि महाभारतस्य.
सेकेण्ड् वन् इस् मोर् बेटर्.
More better, yes. We are saying, Aham Mahabharatam Patham.
Okay. Bhavan Kashmiram Gatva Viharam Karotu. Bhavan Viharam Kartum Kashmiram Gacchati.
Gacchatu.
Okay. Saha Lekham Likhitva Patrikasu Prakashayati. Saha Patrikasu Prakashayatum लेखं लिखति.
समीचीनम्. अस्तु, समीचीनम्.
धन्यवाद महोदय.
अस्तु भगिनि, अग्रे प्रेमलता भगिनी.
आम्
एतत् सम्भाषणं पठतु भगिनि.
ओके. वैद्यः ऐ थिङ्क् इस् इट् वन्.
आं भगिनि, यस् दिस् इस् द वन्. एतत्
वैद्यः किम् अभवत्? द डाक्टर् सेस् वाट् हेपेण्ड्. रोगी द पेशेण्ट् सेस् ज्वरः श्रीमान् फीवर् इट् इस् फीवर् सर्. वैद्यः डाक्टर् सेस् कदा आरभ्य? फ्रम् वेन् आन्वर्ड्स्? डाक्टर् सेस् कदा आरभ्य? द पेशेण्ट् सेस् ह्यः आरभ्य, सिन्स् यस्टर्डे. शिरोवेदना अपि अस्ति. हेडेक् इस् आल्सो देर्. वैद्यः द डाक्टर् सेस् आहारः रोचते वा? आर् यु रिलीसिङ्ग् फुड्?
डिड् यु ईट् फुड्?
रोचते. द पेशेण्ट् सेस् आम् रोचते. ऐ एम् रिलीसिङ्ग् फुड्. डाक्टर् वैद्यः जिह्वां प्रदर्शयतु. भवतु, एतत् औषधम् एताः गुलिकाः स्वीकरोतु. द डाक्टर् सेस् शो युवर् टङ्ग्. ऐ थिङ्क् यु हाव् टु सी इन् दिस्. ओके, दिस् ओके. भवतु, ओके. एतत् औषधं, दिस् मेडिसिन् एण्ड् दि एता गुलिका, दीस् टेब्लेट्स् च, दिस् मेडिसिन् एण्ड् दीस् टेब्लेट्स् आल्सो, यु टेक् दीस् टेब्लेट्स् आल्सो. यु टेक् दीस् टेब्लेट्स् आल्सो एण्ड् औषधं बोत्. एक्साक्ट्लि ट्रान्स्लेटिङ्ग् मीन्स् एतत् औषधम् एताः गुलिका च स्वीकरोतु. दिस् मेडिसिन् एण्ड् दिस् टेब्लेट्स् to take it. The rogi, the patient says, suchyoshadam na avashyakam va. The patient asks the doctor, is injection not necessary? Vaidyaha doctor na एतदेव पर्याप्तं. डाक्टर् सेस् नो, दिस् इट्सेल्फ् इस् सफिशियण्ट्. एतदेव मीन्स् दिस् इट्सेल्फ्, ऐ थिङ्क्.
एतत् योग योजित्वा एव एतदेव.
द पेशेण्ट् सेस् द रोगी द पेशेण्ट् ही सेस् अद्य मया स्नानं कर्तुं शक्यते किल? Today, adhya means now. Is it now or today? Adhya?
Today only.
Today?
Idani means now. Idani means okay. Now. Adhya means today.
Today, can I have my bath?
Shakyate kila.
Kila, how to translate it?
Is it possible can for me to take, is it, can I take a bath? Is it?
Can
is
I take it? A bath today? Vaidyaha shakyate kintu usna jalena karotu. Shita jalena mastu. Yataha bhavataha jvalaha prayashaha shita karanat eva agataha syat. The doctor says you can do it, shakyate. But you do it with hot water, not with mastu sita jalena, not with cold water. Because yataha bhavataha jvaraha prayashaha, probably your fever शीतकारणात् एव आगतः स्यात् बिकास् आफ् द कोल्ड् यु गाट् द फीवर् प्राबब्लि द डाक्टर् सेस् द रोगी पेशेण्ट् सेस् श्रीमन् अहं श्वः स्वस्थः भविष्यामि वा द रोगी द डाक्टर् द पेशेण्ट् आस् द डाक्टर् सर् श्रीमन् सार् अहं आम् श्वः स्वस्थः भविष्यामि वा विल् ऐ बि ओके भविष्यामि वा विल् ऐ बि ओके स्वस्थः मीन्स् विल् ऐ बि ओके विशेषेण आर्
विल् ऐ बि फैन् टुमारो विल् ऐ बि
विल् ऐ बि फैन् टुमारो वैद्यः द डाक्टर् सेस् एतत् औषधं स्वीकरोतु निश्चयेन स्वस्थः भविष्यति भवान् द डाक्टर् सेस् टेक् दिस् मेडिसिन् शूर्लि यु विल् बि फैन् निश्चयेन शूर्लि स्वस्थः भविष्यति भवान् यु विल् बि फैन् द रोगी सेस् थेङ्क्स् धन्यवादः
बहु समीचीनं भगिनि सो किन्तु
किन्तु किन्तु निश्चयेन प्रायशः शिला दीस् आर् फोर् वर्ड्स् गिवन् हियर् ऐ विस् सम् स्पेशल् वर्ड्स्
अस्तु भगिनि किन्तु इत्युक्ते वि आलरेडि सीन् बट् निश्चयेन शूर्लि प्रायशः
प्राबब्लि
probably killer is it or can is something like killer is it it's like a expressive word that we are trying to use that is how okay. it is going to be or is it killer that is what it is okay. yeah
okay.
so chet and no chet also we have done previously so we will not complete chet and no chet and yatah as Premlata Bhagini has mentioned in our previous conversation yatah ityukte because So we'll try to use these usages here. So next, Usha Bhagini Astiva. Usha Bhagini. Ashtu, Usha Bhagini is not responding. Again, it looks like she got disconnected. Usha Bhagini, we are not able to hear your voice, Bhagini. Ravindra Mahode, can you hear our voice? Usha Bhagini, can you hear our voice? So they are not able to hear. So we'll start with Yataha. Yataha ityukte because. That is what Yataha means.
Shall I read now, sir? Able to hear?
Yes, Bhagini, your voice is audible. Please go ahead, Bhagini.
Yataha udaharanam drishtva tad anugunam vakyani parivartayatu. आरोग्यं सम्यक् नास्ति अतः सः चिकित्सालयं गच्छति सः चिकित्सालयं गच्छति यतः आरोग्यं सम्यक् नास्ति विद्युत् नास्ति अतः दीपः न ज्वलति यतः विद्युत् नास्ति दीपः न ज्वलति
दीपः न ज्वलति यतः विद्युत् नास्ति बिकास् देर् इस् नो करेण्ट् द लैट् इस् नाट् ग्लोयिङ्ग् बिकास् देर् इस् नो करेण्ट्
ओके ओके अद्य गणेशोत्सवः अतः विद्यालयस्य विरामः अस्ति यतः गणेशोत्सवः अस्ति अतः विद्यालयः विद्यालयस्य विरामः अस्ति.
समीचीनं.
सम्यक् न पठितवान् अतः सः परीक्षायाम् अनुत्तीर्णः. अनुत्तीर्णः मीन्स् लेस् मार्क्स्.
फेल्ड्.
फेल्ड्. ओके. अनुत्तीर्णः.
उत्तीर्णः अनुत्तीर्णः.
आम्. सम्यक् सः न पठितवान् अतः परीक्षायाम् अनुत्तीर्णः. आर् अदर् वे रौण्ड्.
यतः सम्यक् न यतः परीक्षायाम् अनुत्तीर्णः यतः सम्यक् न पठितवान् यतः सम्यक् न पठितवान् सः परीक्षायाम् अनुत्तीर्णः. अग्रे भगिनि.
संस्कृतं सुलभम् अतः अहं संस्कृतं पठामि. यतः संस्कृतं सुलभम् अहं संस्कृतं पठामि. उदयनः अन्यां भाषां न जानाति अतः संस्कृतेन वदति. यतः उदयनः अन्यां भाषां न जानाति संस्कृतेन वदति. तस्य मूल्यम् अधिकम् अतः तत् वस्त्रं मास्तु. यतः तस्य मूल्यम् अधिकं तत् वस्त्रं मास्तु.
समीचीनं भगिनि. समीचीनं.
महोदय can I get a clarification if you don't mind? Yataka starting from here, yataka and in between ataka has to come. It's not necessary. Ataka has to come.
Astuta ataka is not there. Ataha nasti atra. Ataha ityukte hence. So yada sanskrutam sulabham aham sanskrutam patami. Ataha ja ataha nasti.
No, no, I want to get a clarification. The complete verse, the sentence ataka is must or not?
अतः इस् नाट् वेन् यु आर् यूसिङ्ग् यतः यतः इति अतः आरोग्यं सम्यक् नास्ति. मै हेल्त् इस् नाट् गुड्. सः चिकित्सालयं गच्छति. हेन्स् हि हस् गान् टु द क्लिनिक् आर् हास्पिटल्. सः चिकित्सालयं गच्छति. सो इट् इस् नाट् इट् इस् अ स्टेट्मेण्ट् बट् वै हि हस् गान् इस् वाट् इस् यतः. बिकास् आरोग्यं सम्यक् नास्ति सः चिकित्सालयं गच्छति. सः चिकित्सालयं गच्छति इति बिकास् आरोग्यं सम्यक् नास्ति.
Okay, Magadhyaya, but even our books and all, we have, I gone through the wordings, especially Yataka start, in between Ataka also come, that's why I'm asking. Okay, now I'll get a clarification. Yataka, Ataka, okay, so if you don't mind, you get one sentence, one sentence, I get a clarification. This Arogyam Samyak Nasti, Yataka Arogyam Samyak Nasti, Ataka Saga, अतः सः विद्यालयम् अपि वर्ट् ए वर्ड् एक्चुलि
सि चिकित्सालयं गच्छति यतः बिकास् हिस् हेल्त् इस् नाट् गुड्. अतः विल् यु केन् यूस् अतः आल्सो. यतः अण्ड् अतः केन् आल्सो गो टुगेदर्. हेन्स् हि हस् गान् टु चिकित्सालयम् इति सम्यक् अस्ति. परन्तु अतः अण्ड् यतः विल् बिकम् कैण्ड् आफ् रिडण्डेण्ट् वेन् वि आर् ट्रैङ्ग् टु इम्प्लै बोत् द सेम् थिङ्ग्स्. यतः तस्य आरोग्यं सम्यक् नास्ति सः चिकित्सालयं गच्छति.
ओके महोदय. ओके ओके अण्डर्स्टुड्. ओके
हा वी केन् यूस् यतः अण्ड् अतः टुगेदर् आर् वी केन् से हेन्स् आर् वी केन् से बिकास्. दीस् आर् टु इण्डिविजुवल् वर्ड्स् आल्सो वी केन् यूस् यतः अण्ड् अतः. दे केन् आल्सो गो टुगेदर्. अस्तु सो नेक्स्ट् आर् अव्ययानां. सो this is something I think this we have done previously in our beginning classes itself. We have seen what they are. So let's try to go with the next one. Yaha saha and yasa. So this is like trying to address the professions or try to name certain designations. We will use yaha and saha. For example, here we have yaha kridati saha kridaluhu. इत्युक्ते वन् हू प्लेस् ही इस् काल्ड् एस् प्लेयर् रैट्. क्रीडति सः क्रीडालुः आर् हू इस् एबल् टु प्ले क्रीडालुः इस् वाट् इस् यः. हू प्लेस् ही इस् काल्ड् एस् क्रीडालुः. दट् इस् वाट् इस् मीनिङ्ग् हियर् यः सः. सिमिलर्ली या सा. या चिकित्सां करोति सा वैद्या, यः चिकित्सां करोति सः वैद्यः. सो वैद्यः सिमिलर्ली वैद्या. सो वेन् इट् इस् फेमिनैन् जेण्डर् वि आर् यूसिङ्ग् या अण्ड् सा. या मीन्स् वन् हू डस् इट् ही इस् काल्ड् एस् डाक्टर् इस् वाट् इस् बीङ्ग् यूस्ड्. या चिकित्सां करोति सा वैद्या, यः क्रीडति सः क्रीडालुः. ओके, अस्तु. सो त्रिवेणि भगिनी, केन् यु प्लीस् कम्प्लीट् दि अदर् सेण्टेन्सस् हियर्?
अस्तु महोदय. गायकः गायतु
यः गायति,
यः गायति सः गायकः. यः भाषण करुः
भाषणं
करोति सः भाषणकारः. यः चलतु सः
वाहनं चालयति, यः चालयति सः चालकः.
यः चालयति सः चालकः. यः लिखति सः लेखकः. या चिकित्सां करोति सा वैद्या. या नर्तनं करोति सा नर्तिका,
नर्तकी,
नर्तकी. या
अध्ययनं करोति,
या अध्ययनं करोति सा अध्यापिका. या कार्यं करोति सा कार्यकर्ता,
कार्यकर्त्री. कर्त्री, कर्ता विल् बिकम् सः कार्यकर्ता, सा कार्यकर्त्री. अस्तु अस्तु, अग्रे यत् एण्ड् तत्. सो मञ्जुश्री भगिनी, केन् यु डू यत् एण्ड् तत्?
आं महोदय. यत् तत् एतानि वाक्यानि पठतु. मम समीपे यत् पुस्तकम् अस्ति तत् अन्यत्र नास्ति. द बुक् विच् ऐ हेव् इस् नाट् एनिवेर् एल्स्.
दट्
इस् नाट् एनिवेर्
एल्स्.
विदेशे यत् तन्त्रज्ञानम् अस्ति तत् भारते नास्ति. द टेक्नोलजि दट् इस् देर् इन् फारिन् कण्ट्रीस् इस् नाट् देर् इन् इण्डिया. अध्यात्मविषये भारतीयानां यत् चिन्तनम् अस्ति तत् अपूर्वम्. वाट् इण्डियन्स् नो अबौट् अध्यात्म, देट् इस् फिनोमिनल्.
अस्तु भगिनि, द नेक्स्ट् वन्स् आर् एतादृशानि वाक्यानि लिखतु यत् जलं नदीमस्ति तत् जलं सरोवरे नास्ति, यत् सः खादति तत् अहं न खादामि. सो वी केन् फार्म् दि सेण्टेन्सस् यूसिङ्ग् यत् एण्ड् तत्. तत् वि हव् आलरेडि सीन् इन् अवर् बिगिनिङ्ग् क्लासस्. एतत् तत्, सो देट् एण्ड् दिस् इस् वाट् इस् तत्. देट् मीन्स् तत्, दिस् मीन्स् एतत्. सो यत् मीन्स् वन् विच् इस् आर् वन् लैक् देट्. देट् इस् वाट् इस् यत्. सो वेन् वी वाण्ट् टु से समथिङ्ग् विच् इस् अदर् देन् दिस् एण्ड् दट् वील् से यत्. एण्ड् वी आर् यूसिङ्ग् यत् वेन् वी वाण्ट् टु कम्पेर् इट्. यत् मम समीपे यत् पुस्तकम् अस्ति, द वन् देट् ऐ हाव् इस् नाट् लैक् देट्, देट् इस् सम्वेर् एल्स्. सो यत् एण्ड् तत् अस्तु. अग्रे अपि कृपया एकवारं पठतु भगिनि, मञ्जुश्री भगिनि. यद्यपि तथापि.
आं महोदय. यद्यपि तथापि, अत्र वाक्यद्वयं लिखितम् अस्ति तत् उदाहरणानुगुणम् एकं वाक्यं कृत्वा लिखतु. यथा, सः निर्धनः दानं करोति. यद्यपि सः निर्धनः तथापि दानं करोति. ओके, he is poor, still he is donating.
Yes, even though he is poor, then even also though. He
Yadyapi,
that also, then also, tatha, then also. दानं करोति.
ओके ओके. मम समयः नास्ति, भवत्याः गृहम् आगच्छामि. यद्यपि मम समयः नास्ति तथापि भवत्यां गृहम् आगच्छामि. इवन् दो ऐ डोण्ट् हेव् टैम् यु प्लीस् कम् होम्.
ऐ विल् भवत्याः गृहम् आगच्छामि. भवत्याः टु आफ् युर् हौस् टु युर् हौस् ऐ एम् गोयिङ्ग् टु कम्.
ओके. यस् यस्. सः बुद्धिमान्, परीक्षायाम् अनुत्तीर्णः. यद्यपि सः बुद्धिमान् तथापि परीक्षायाम् अनुत्तीर्णः. इवन् दो हि इस् स्कालर् हि फेल्ड् इन् एक्साम्. अहं भोजनं न कृतवान्, बुभुक्षा नास्ति. यद्यपि अहं भोजनं न कृतवान् तथापि बुभुक्षा नास्ति. बुभुक्षा इत्युक्ते
हङ्गर्.
ओके. हङ्गर्. ओके. अहम् अधिकं पठामि, स्मरणे न तिष्ठति. यद्यपि अहम् अधिकं पठामि तथापि स्मरणे न तिष्ठति. इवन् दो ऐ रीड् मोर् ऐ डोण्ट् रिमेम्बर्. किञ्चित् कष्टं भवति, अहं योगासनं करोमि. यद्यपि किञ्चित् कष्टं भवति तथापि अहं योगासनं करोमि. इवन् दो इट् पेन्स् अ लिटिल् ऐ डू योगासनम्. अद्य भानुवासरः, विद्यालयस्य विरामः नास्ति. यद्यपि अद्य भानुवासरः तथापि विद्यालयस्य विरामः नास्ति.
समीचीनं भगिनि, समीचीनम् अस्तु. धन्यवादः.
धन्यवादः.
सो दिस् ब्रिङ्ग्स् टु द एण्ड् आफ् अवर् अभ्यासपुस्तकम्. And there are other words that have been given here, the meanings and that you can refer to these words later, which are kind of meanings, words in Sanskritam and equivalent meanings in English. So some of the things that we have seen in this book are given at the end, so you can refer to this. So this brings to the end of our Abhyasa Pustakam classes. So the next level would be you can join other classes that are going on. We have Gita Sopanam classes, then we have Samasaha classes, then we have Sandhi classes, and also there are Vyakarna, Panini Vyakarna classes, Ashtadhyayi classes that are going on simultaneously. So please try to continue one of these classes. Bahu Samichanam Asti. कथम् अग्रे गच्छामः इति अस्तु भगिनि. सो वाट् ऐ डू इस् ऐ सो वेन् यु से सीक्वेन्स् यु वाण्ट् द लेवेल्स् विच् लेवेल् टु अटेण्ड् नेक्स्ट् आर् वाट् डे द क्लासस् आर् बीङ्ग् शेड्यूल्ड्.
नो, विच् लेवेल् टु अटेण्ड् द लेवेल् वैस्.
Astu bhaini, so today's recording when I send, I'll also send that note in the email. So but if you want now, I can tell that next you can go to Gita Sopanam, or you can go to even Panini Vyakarana classes also you can attend, but for that you would have to attend them continuously. If you give a break to Panini Vyakarana classes, then you will lose the track of it. So you have to follow the Panini Vyakaram classes very you know, with lot of dedication. Only then they will make a lot of sense, because it happens only weekly once. So every week you have to attend that class, that you can attend. And the next level would be if there are any Vibhakti Vallari classes, you can attend Vibhakti Vallari classes, or Gita Sopanam level 1. Gita Sopanam level 1 will also cover Vibhaktis. You can attend those classes, Gita Sopanam or Vibhakti Vallari. And there is one class which is called as Abhyasa Darshani, so that also you can attend. So these are the different levels that you can attend after the Abhyasa Pustakam or the Pathita Sanskritam. Next level would be these classes. One is the Gita Sopanam, Vibhakti Vallari, or you can attend Abhyasa Darshani. Three different next level immediate classes. But if you want to maintain a continuous rhythm, you can even attend Samasaha classes, but they would have started long before. But Panini Vyakarana classes have started recently. Lot of batches have started recently in 2020. But you need to attend them regularly, otherwise you will drop out. So please try to attend them regularly. They will be very interesting. This will, they happen only in Sanskritam. The medium of instruction is Sanskritam, and the medium of delivery is also Sanskritam, and all the content is in Sanskritam. There is no transliteration for that. So we need to be very attentive.
And what about Gita Sopanam and Vibhakti or Abhyas Darshini? Are they are the conversation in Sanskrit or
They will be in Sanskritam only. All the classes going forward after the Bhashita Sanskritam classes, Sarve Api Sanskritam Eva Bodhayati.
Sir, how to attend the Panini class?
Please drop a mail to Swaroop Mahodaya, so you will get notifications of those classes. You have Swaroop Mahodaya's email?
No, sir.
So, okay. I'll post the Swaroop Mahodaya's email in our WhatsApp group also. So, I'll include that in our email as well, so that you will
But that Panini class, current class has already started in September, sir. And covered a lot. And so it's quite difficult.
16-17 classes would be completed. Now it will be like Greek and Latin. Absolutely right, Bhagini.
Yes, so if someone wants to join, please join for class from class 1. That is my suggestion.
Then which class is best class?
So one class was started recently. Purnendu Mahodaya's classes have started recently. But they are happening, I think... what the mode of delivery is, they are going to give us one page of the Panini Vyakarana.
So Purnendu Mahodaya's classes only have started from September, sir, because I am in his class only.
Okay, the weekend batch also started in September, Bhagini.
That batch only I am seeing, sir.
I see. I thought it was recent.
We have just covered Paniniya Sutram Katham Pathaniyam. Currently, we are on Itsadhya Prakaranam, sir.
Okay, so almost 12 classes.
Yes, sir. 12-13 classes have already been covered.
So, wait for new classes. If you want to start from beginning, that would be the best thing, ideal thing to do. But if you think you can listen to classes and learn, the recordings are available, I guess. Manjushri Bhagini, they are also recording, right?
Yes, sir. They are available. There are also 8 batches, but I think more or less the portion must be the same everywhere covered.
12 to 14 classes would have been covered, Mahodaya. So that is what.
Okay, sir. Then I will try for the other classes.
But Purnendu Mahodaya's classes for Gita Sopanam and Vibhakti Vallari are starting from 1st of February or somewhere in the first week of February, sir.
Yeah, I will join that.
Astu Mahodaya. So, Bhagini, you have Purnendu Mahodaya's email or anything, you can drop in our group.
Yes, sir. I will do that, sir. Sir, any one of these classes, sir, you will be continuing conducting, sir?
Not yet. Swaroop Mahodaya should tell me what will happen. So
okay. we would like to continue with you only, sir, because we have learned from you for these months. So, we would like to continue with you.
Astu Bhagini, definitely. Praya, I have to check with Swaroop Mahodaya whatever assignment he gives. Next, I'll try to do that. Astu Bhagini.
Okay, sir. Please let us know, sir.
Samichanam, our group is active, so I'll keep on sending our messages in our group. And hopefully, we'll meet again. And it has been a nice journey so far for about 2.5 months. Very nice journey. So,
Nagadaya. Jain Mahodaya.
I'm Mahodaya.
I'm Murugan Sharma. I'm sorry to say, Mahodaya, last 3 to 4 classes I'm not able to attend because you might have known my reason I have told you.
Yes, Mahodaya, yes.
Yeah, sorry, I was totally upset. And moreover, coming 31st, I'm going to write a Parichaya exam also. The process is going on. Second level exam. Parichaya. Because July I have to attend, but it has postponed due to COVID.
So you are doing it online?
Yeah, decided. Online exam only.
So the
question paper will be group for the WhatsApp group, the question paper will be available. So you have to go for that. I'm also requesting you, please take one more class. You would take an assessment from Swaroop Mahodaya. You request we want your class.
definitely, Mahodaya. Definitely. I think we'll go ahead.
Please, Mahodaya. प्लीज् महोदय बिकास् वी हव् आब्सर्व्ड् अ लाट् फ्रम् यू
अस्तु महोदय धन्यवादः एण्ड् वी होप्फुल्लि विल् कण्टिन्यू अवर् क्लासेस् वी विल् सी वाट् वाट् केन् बी फॉरवर्ड
धन्यवादः
इफ यू वांट एनी फॉरवर्ड प्लीज सेंड मी धन्यवादः
अस्तु महोदय अस्तु महोदय धन्यवादः धन्यवादः भगिनि
धन्यवादः महोदय
धन्यवादः महोदय
धन्यवादः
धन्यवादः
शुभरात्रि
धन्यवादः महोदय
धन्यवादः भगिनि धन्यवादः
धन्यवादः महोदय
Hope to